पापतमुवितानं सम्यक् प्रणम्य जिनपादयुगं युगादावालं वनं भवजले पततां जनानां यः संसुतः सकलवाङ्मय तत्त्वबोधादुद्भूतबुद्धि पटुभिः सुरलोकनाथैः स्तोत्रैर्जगत्त्रितय चित्तहरैरुदारैः स्तोष्ये किलाहमपितं प्रथमं जिनेन्द्रम् विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहं बालं विहाय जलसंस्थितमिन्दुबिम्ब मन्यः क इच्छति जनः सहसा गहीतुम् वक्तुं गुणान् गुणसमुद्र शशाङ्ककान्तान् कस्ते क्षमः सुरगुरु प्रतिमोऽपि बुद्ध्या कल्पान्तकाल पवनोद्धतनक्रचक्रं को वातरीतुमलमम्बु निधिं भुजाभ्याम् तथापि तव भक्तिवशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः प्रीत्यात्मवीर्यमविचार्य मृगी मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरी कुरुते बलान् मां यत् कोकिलः किल मधौ मधुरं विरोति तच्चाम्रचारुकलिकानिकरैकहेतु संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणाक्षय उपैति शरीरभाजम् आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशु भिन्नमिव शार्वरमन्धकारम् मत्वेति नाथ तव संस्तवनं मयेदम् आरभ्यते तनुधियापि तव प्रभावात् चेतो हरिष्यति सतां नलिनीदलेषु मुक्ता फलद्वितिनुपैति ननूदबिन्दुः आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्सङ्कथापि जगतां दुरितानि हन्ति दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि नात्यद्भुतं भुवनभूषणभूतनाथ भूतैर्गुणैर्भू भवन्तमभीष्टुवन्त तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः पीत्वा पयः शशिकरद्युतिदुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निरमापितस्त्रिभुवनैकललामभूत् तावन्त एव खलु ते प्रणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति क्वते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्त्रितयोपमानं बिम्बं कलङ्कमलिनं क्वनिशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् शशाङ्ककला कलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति ये संसिताश्रीजगदीश्वरनाथवेगं कस्तान्निवारयति सञ्चरतो यथेष्टम् किमत्र यदि ते त्रिदशाङ्गनाभिर्नीतं मनागपि मनो न विकारमार्गं कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् निर्धूमवर्तिरपवर्जित तैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि गम्यो न जातु मरुतां चलिताचलानां दीपोपरस्त्वमसि नाथ जगत्प्रकाशः नास्तं कदाचिदुपयासि न राहुगम्य स्पष्टीकरोषि सहसा युगपज्जगन्ति नाम्भोधरोदर निरुद्धमहाप्रभावः सूर्यातिशायि महिमासि मुनीन्द्रलोके नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानां विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् शर्वरीषु शशिनानि विवस्वतावा युष्मन्मुखेन्दु दलितेषु तमः सुनाथ निष्पन्नशालिवन शालिनि जीवलोके कार्यं कियत् जलधरैर्जलभारनं रैः कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु तेजोमामणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि हरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनोहरति नाथ भवान्तरेऽपि शतानि शतशो जनयन्ति पुत्रान्नान्या सुतं त्वदुपमं जननी प्रसूता सर्वादिशो दधति भानि सहस्ररश्मिं प्राच्येव दिक् जनयति स्फुरदंशुजालम् मामनन्ति मुनयः परमं पुमांसं मादित्यवर्णममलं तमसः पुरस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्रपन्था त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुं योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रय शङ्करत्वात् धातासि धीर शिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि भ्यं नमस्त्रिभुवनार्ति हराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिनभवो दधि शोषणाय को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं संश्रितो निरवकाशतया मुनीश दोषैरुपात्त विविधाश्रय जातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि उच्च चैरशोकतरु संशित मुन्मयूखं मा भाति रूपममलं भवतो नितान्तं स्पष्टोल्लसत् किरणमस्ततमो वितानं बिम्बं रवेरिव पयोधर पार्श्ववर्ति सने मणिमयूखशिखा विचित्रे विभ्राजते तव वपुः कनकावदातं बिम्बं वियत् विलसदंशुलतावितानं तुङ्गोदयादृशिरसीव सहस्ररश्मिः चलचामर चारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् उद्यच्छशाङ्क शुचिनिर्झरवारिधारम् उच्चैस्तटं सुरगिरेरिव शातकुम्भम् त्रयं तव विभाति शशाङ्ककान्तम् उच्चैः स्थितं स्थगितभानुकरप्रतापं मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् गम्भीरतारवपूरित दिग्विभागस्त्रैलोक्यलोक शुभसङ्गम भूतिदक्ष सद्धर्मराज जय घोषण घोषकः संख्ये दुन्दुभिर्ध्वनति ते यशसः प्रवादी मन्दार सुन्दर न मेरुसुपारिजात सन्तानकादि कुसुमोत्कर वृष्टिरुद्धा गन्धोदबिन्दु शुभमन्द मरुत् प्रपात दिव्यादिवः पतति ते वच साम्प्रतिर्वा प्रभावलय भूरि विभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति प्रोद्यद्दिवाकर निरन्तर भूरि संख्या दीप्त्या जयत्यपि निशामपि सोम सोम्याम् स्वर्गापवर्ग गममार्ग विमार्गणेष्ट सद्धर्मतत्त्व कथनैकपटु स्त्रिलोक्याः दिव्यध्वनिर्भवति ते विशदार्थ सर्व भाषा स्वभाव परिणाम गुणैः प्रयोज्यः कान्ति परियुल्लसन्नखमयूख शिखाभिरामौ पादौ पदानि तव यत्र जिनेन्द्रदत्त पद्मानि तत्र विबुधाः परिकल्पयन्ति इत्थं यथा तव विभूतिरभूज्जिनेन्द्र धर्मोपदेशन विधौ न तथा परस्य यादृक् प्रभादिन कृतः प्रहतांधकार तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि चोतनमदा विलविलोल कपोलमूल मत्तभ्रमत् भ्रमरनाद विवृद्ध कोपम् ऐरावताभमिभ मुद्धत मापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् कुंभ गलदुज्ज्वल शोणिताक्त मुक्ता फल प्रकर भूषित भूमि भाग बद्ध क्रम क्रमगतम हरिणाधिपोपि न क्रामति क्रमयुगाचल संश्रितन्ते काल पवनोद्धत वह्निकल्पं दावानलं ज्वलितमुज्ज्वल मुत्सुलिंगं विश्वं जिघत्सुमिव सन्मुख मापतन्तं त्वन्नाम कीर्तन जलं शमयत्यशेषम् रक्ते क्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् आक्रामति क्रमयुगेण निरस्तशङ्कस्त्वन्नाम नागदमनि हृदि यस्य पुंसः गजगर्जित भीमनाद माजौ बलं बलवतामपि भूपतीनां उद्यद्दिवाकर मयूखशिखापविद्धं तत्कीर्तनात्तम इवाशु भिदमुपैति ग्रभिन्न गजशोणित वारिवाह वेगावतार तरणातुर योध भीमे युद्धे जयं विजित दुर्जय जेय पक्षास्त्वत्पाद पंकज वनाश्रयिणो लभन्ते भीषण नक्र चक्र पाठीन पीठ भय दोल्वण वाडवाग्नौ रंगतरंग शिखर स्थित यान पात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति भीषण जलोदर भारभुग्ना शोच्यां दशामुपगताश्युत जीविताशा त्वत्पाद पंकज रजोमृत दिग्ध देह मर्त्या भवन्ति मकर ध्वज तुल्य रूपा కంఠమురు శృంఖల వేష్టితాంగ గాఢం బృహన్ నిగడ కోటి నిఘిష్ట జంఘా పన్నామ మంత్ర మనిషం మనుజా స్మరంత సద్య స్వయం విగత బంధ భయ భవంతి. తద్విపేంద్ర మృగరాజ దవానలాహి సంగ్రామ వారిధి మహోదర బంధనోత్థం తస్యాశునాశముపయాతి భయం భియేవ యస్తావకం స్తవమిమం మతిమానధీతే. స్వజం తవ జినేంద్ర గుణైర్నివద్ధం భక్త్యామయా రుచిరవర్ణ విచిత్ర పుష్పాం ధత్తే జనో యైహ కంఠగతామజస్రం తం మానతుంగమవశా సముపైతి లక్ష్మీ.